नवावो देवा क्षुधमिद्वदन्तदुर्दासी तमुपगच्छन्ति वृत्यवाः उदोरयः प्रेणतो नोपादस्य च्युता प्रेणन्मर्दितारम् न विन्दते य आध्राय जगमानाय वित्तोन्न वान्सन्नभितायोः प्रजग्मुषेः स्थिरम् मनस्तृते सेवते पुरोतो चित्समद्विदारम् न विन्दते सेद्भोजो यो गृहवेदधात्यन्न कामाय ददाते कृशाय अरामस्मै भवति यामाहूता उदा परीषो गृणते सखायम् न स सहायो न ददातिशक्ये स चाभुवे स च मानाय भित्वः अपास्मात्रेयान्न तदोको अस्ति मन्यमरानम् चिकित्सेत् नीयादिन्नाधमानाय रव्याम् राघीयाम् समनोपस्येत पन्थाः वो हि वर्तम् ते रथ्येव चक्राण्यमन्यमुपातिष्ठम् तरायाः मोघमन्नम् विन्दते अप्रजेताः सत्यम् रवीमि वधयित्सदस्य नार्यमलम् पुष्यति नो सखायम् केवलाधो भवति केवलादी कृषन्नध्वालासीदम् कृणोति यन्नध्वानमपवृङ्गे चरित्रैः वदन् ब्रह्मा वदतो मनीयान् प्रणन्नाभिरप्रेणन्तमभिष्यात् एकपाद्भूयो द्विपदो विचक्रमे द्विपाद्विपादमभ्येति पश्चात् चतुष्पादेति द्विपदामभिस्वरे सम्पश्यन् पङ्क्तिरुपतिष्ठमानः समौजिद्धस्तौ न समम् वेवृष्टः सम् मातरा चिन्न समम् दूहादे यमयोश्चिन्न समावीर्याणि ज्ञाति चित्सन्तौ न समम् वेणीतः